अच्युतं केशवं कृष्णदामोदरम्
अच्युतं केशवं कृष्णदामोदरम्
रामनारायणं जानकीवल्लभम्
रामनारायणं जानकीवल्लभम्
कृष्ण दर्शन तो देंगे कभी ना कभी।
अद्भुतं केशवं कृष्णदामोदरं रामनारायणं जानकीवल्लभम्।